पुरुषं जगत शिवे नमचसाद्वागीशाखावदामसि यतानः सर्वमिज्जगदयश्मगुं सुमना असत अद्यवो जगदि वक्ता प्रथमो दैयो विशत अहीगुश्च सर्वा निशीलशल्यानामुखा शिवो नः सुमना भवा विज्जं धनुः कपर्दिनो विशल्यो बाणवागुम्भृता अरेशन्नशेषव आपुरस्य निषङ्गतिः याते एतिर्मेरुश्च महस्ते बभूव ते धनुः तयास्मान् विश्वतत्त्वमयश्मया परिभुजा नमस्ते अस्वायुधायानाततताय कृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेति अस्मान् तृणक्तु विश्वतः अथो य इषुरिस्तवारे अस्मन्निये हितम् नमस्ते अस्तु भगवन् विश्वेश्वर स्वाचाग्ने तनुवं विप्रयस्मास्मभ्यं च सौभगमाय जस्व गोभिर्जुष्टमयुजो निषिक्तम् दवे ष्टमभिसंवसानो वैष्णवीर्लोकयमादयन्तात् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गि प्रचोदयात् ॐ शान्ति 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 शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद सभूहिम् विश्वतो वृत्त्वा अत्यतिष्ठत् दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उदामृतत्वशेषानः यदन्येनाधिरोहति एतावानस्य महिमा अतो पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवि कृपादूर्वौ दैपुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत शासनानशने अभि तस्मा सन्तो अस्याधीदाज्यम् ग्रीष्म इत्मशरद्रविः सप्तास्यासन् परिदयः त्रिसप्तसमिद कृताः देवायद्यज्ञम् धन्वानः अवर्धन् पुरुषम् पशुम् तम् यज्ञम् बर्हिः प्रोक्षन् पुरुषम् जातमग्रता तेन देवा अयजन्ता साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वहुतः संवृतम् पृषदाज्यम् पशुगुश्चागुश्चक्रे वायव्यान आरण्यान् ग्राम्या तस्माद्यज्ञात् सर्वहुतः ऋजस्सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त हे गेजो भयादतः कामो अजग्निरे तस्मात् यत्पुरुषम् यददुः अपिताय कल्पयन् मुखम् किमस्य गौ बाहू काहूरुपादा उच्येते ब्राह्मणो
Yo.